कृपाङ्कुरु जगन्मातरमामेवं हततेजसं गुरुशापात् स्मृतिभ्रष्टं विद्याहीनं च दुःखितं ज्ञानं देहि स्मृतिं देहि विद्यां देहि देवते प्रतिष्ठां कवितां देहि शाक्तं शिष्य प्रबोधिकं ग्रन्थनिर्मिति शक्तिं च सच्छिष्यं सुप्रतिष्ठितं प्रतिभा सत्सभाया च विचार क्षमता शुभा लुप्ता सर्वान् दैव वशान्नवं कुरु पुनः पुनः यथाङ्कुरं जनयति भगवान् योग मायया ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी सर्वविद्याधिदेवी या तस्यैवान्यै नमो नमः यया विना जगत् सर्वं शश्वत् जीवन् चन्दन कुन्देन्दु कुमुदाम्बोज सन्निभा वर्णादि देवी या तस्यै चाक्षराये नमो नमः विसर्ग बिन्दु मात्राणां यदधिष्ठानमेव च इत्थं त्वं गीयसे सद्भिर्भारते नमो नमः यया विनात्र संख्या कृत संख्यां कर्तुं न शक्नुते काल संख्या स्वरूपा या तस्यै तस्यै नमो नमः सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छयत्र वै बभूव जडवत्सोऽपि सिद्धान्तं कर्तुमक्षमः तदा जगामं भगवानात्मा श्रीकृष्ण ईश्वरः उवाच स च तं स्तौ हि वाणीमिति प्रजापते स चतुष्टावतां ब्रह्मा चाज्ञया परमात्मनः चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् यदाप्यननतं पप्रच्छज्ञानमेको वसुन्धरा बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः तदा त्वां च सन्तुष्टावसन्त्रस्तकश्यपाज्ञया ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् पुराणसूत्रं च पप्रच्छ वाल्मीकिं यदा मौनीभूतः स संस्मार त्वामे जगदम्बिकां तदा चकार सिद्धान्तं त्वत्वरेण मुनीश्वरः स प्राप निर्मलं ज्ञानं प्रमादद्धं सकारणं पुराणसूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः त्वां शिशेवे च दध्योतं शतवर्षवर् च पुष्करे तदत्तत्तो वरं प्राप्य स कविन्दो बभूवः तदा वेदविभागं च पुराणानि चकारः यदा महेन्द्रे पप्रच्छ तत्त्वज्ञानं शिवा शिवं क्षणं त्वामेव सञ्चिन्त्य तस्यै ज्ञानं दधौ विभु पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिं च सकोम्बद्यल् च पुष्करो वेदान्तो वरं ब्रह्मदीप्तं वर्षसहस्रकम् उवाच सप्तशास्त्रं च पदर्थं च सुमिश्रम् अच्छाभिभाषयैश्चिस्साशैरभीतं लुधीश्वरैः ये च पापणि पञ्चिन्त्य प्रवर्तन्ते सुरेश्वरि स्वत्स्फुता भोजिका च मुनीन्द्रमनुमानवै दैत्यैश्चैश्चैतम् विष्णुशिवातदि ध्वनिभूतः सहसा स्वपञ्चवन्तश्च गुरुमुखः यासौ तुप्तिमहं स्तोमि कामेकः सेनुणानवः वित्तन्ताया कुवर्चश्च वक्किन प्रातदन्तरः वै पञ्च शवीकं च यः पदे सपन्दि पश्चमे धावे सुकविश्च प्लवेत्तवो.